इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य मुम्बई नगरे तस्य यूके देशस्य समकक्षीयेण कीर स्टार्मर इत्यनेन सह वार्तालापं करिष्यति। ब्रिटेन देशस्य प्रधानमन्त्री ह्यः द्विदिवसीय भारत यात्रायां मुम्बई नगरं सम्प्राप्तवान्। श्री स्टार्मर इत्यनेन सह यूके देशात् बहुसंख्यायां व्यापार प्रतिनिधयः समागताः सन्ति। वार्तालापावधौ उभौ पञ्चत्रिंशोत्तरद्विसहस्रतमवर्षस्य लक्ष्यस्यानुरूपं भारत यूके समग्र सामरिक सहभागित्वस्य विविध पक्षाणां प्रगतिम् अवलोकयिष्यतः। पञ्चत्रिंशोत्तरद्विसहस्रतमवर्षस्य लक्ष्ये व्यापार निवेशः प्रौद्योगिकी नवान्वेषणं रक्षा सुरक्षा जलवायु ऊर्जा स्वास्थ्यं शिक्षा जनसम्पर्कः इत्यादिषु प्रमुखेषु स्तम्भेषु केन्द्रीकृतः कालबद्धश्च दशवर्षीयः कार्यक्रमाः उपक्रमाः च सन्ति। भविष्ये भारत यूके आर्थिक सहभागित्वस्य केन्द्रितस्तम्भरूपेण भारत यूके समग्र आर्थिक व्यापार सन्धिद्वारा प्रस्तुतानाम् अवसराणां विषये व्यापार उद्योग नेतृभिः सह उभौ नेतारौ वार्तालापं करिष्यतः। क्षेत्रीय वैश्विकयोः च महत्वपूर्णेषु विषयेषु अपि तौ विचारान् विनिमयं करिष्यतः। द्वयोः नेत्रयोः उद्योगविशेषज्ञैः नीतिनिर्मातृभिः अविष्कर्तृभिः च सह अपि संवादः भविष्यति। उभौ अद्य मुम्बईनगरे षष्ठ्यां ग्लोबल फिन्टेक फेस्ट इत्यस्मिन् कार्यक्रमे मुख्यभाषणं करिष्यतः। मुम्बईनगरे स्वस्य भ्रमणस्य प्रथमे दिने ह्यः वाणिज्यनेतॄन् सम्बोधयन् युनाइटेड किंगडम देशस्य प्रधानमन्त्री सर कीर स्टार्मर वर्यः अवदत् यत् भारत यूके मुक्त व्यापार सन्धि इति यूरोपियन यूनियन इत्यतः निष्कासनात् परं युनाइटेड किंगडम देशेन हस्ताक्षरितः बृहत्तमः व्यवहारः अस्तीति। सः इत्यपि अकथयत् यत् एतत् युनाइटेड किंगडम इत्यनेन भारतं प्रति प्रेषितं बृहत्तमं वाणिज्याभियानम् अस्ति। राष्ट्रपति द्रौपदी मुर्मू अद्यारभ्य गुजरात राज्यस्य त्रिदिवसीय यात्रायां भविष्यति। सा श्वः सोमनाथ मन्दिरे आरती दर्शनं च करिष्यति। सा गिरराष्ट्रिय उद्याने गमिष्यति। सासनगिर इत्यत्र स्थानीय जनजातीय समुदायस्य सदस्यैः सह संवादम् अपि करिष्यति। शनिवासरे राष्ट्रपतिः मुर्मू द्वारिकानगरस्य द्वारिकाधीशमन्दिरे आरती दर्शनं च करिष्यति। सा अहमदाबादनगरे गुजरात विद्यापीठस्य एकसप्ततितमे दीक्षांत समारोहेऽपि भागं ग्रहीष्यति। आगामि बिहार विधानसभा निर्वाचने सरलं सुलभं च मतदानं सुकरं कर्तुं निर्वाचनायोगेन भूस्तरीय मतदानकेन्द्रेषु परिष्काराय व्यापकानि निर्देशानि प्रदत्तानि। आयोगस्य निर्देशानुसारं प्रत्येकस्मिन् मतदानकेन्द्रे दिव्याङ्गजनानां वरिष्ठनागरिकाणां च कृते रैम्प्स इत्यस्य सुलभसंरचनायाः सुरक्षितमार्गस्य संकेतानां पेयजलस्य शौचालयानां समुचितस्य प्रकाशस्य उपलब्धतायाः प्रतीक्षालयस्य च व्यवस्था भवेत्। मतदानकेन्द्रेषु अधिकजनसम्मर्दं न्यूनीकर्तुं पृथक् पृथक् गमनागमनद्वाराणि च भवेयुः। उत्तरप्रदेशे ह्यः सायंकाले कानपुरनगरे एकस्य आपणस्य समीपे द्वयोः स्कूटीयानयोः विस्फोटेन षड् जनाः व्रणिताः। कानपुरनगरस्य आरक्षकायुक्तः रघुवीरलालः अवदत् यत् मूलगंज कोतवाली नगरस्य मिश्री बाजारेति क्षेत्रे एकस्य आपणस्य अग्रे द्वयोः स्कूटीति यानयोः विस्फोटः अभवदिति। आहतेषु षड् जनेषु द्वौ जनौ गभीरावस्थायां स्तः, तौ अन्यत्र चिकित्सालये प्रेषितौ। शेषाः व्रणिताः कानपुरनगरस्य उर्सला चिकित्सालये प्रवेशिताः सन्तीति इति वार्ताः।